महामृत्युञ्जयस्यास्य नदेयं परमाद्भुतम् यं धृत्वा च पठित्वा च यं श्रुत्वा कवचोत्तमम् त्रैलोक्याधिपतिर्भूत्वा सुखितोऽस्मि महेश्वरी तदेव वर्णयिष्यामि तव प्रीत्या वरानने तथापि परमं तत्त्वं न दातव्यं दुरात्मने विनियोगः ॐ अस्य श्री महामृत्युञ्जय कवचस्य श्री भैरव ऋषिः गायत्री छन्दः श्री महामृत्युञ्जय रुद्रो देवता ओम हौम बीजम जूम शक्तिः सह कीलकम् हौम इति तत्त्वम् श्री चतुर्वर्ग फल साधनार्थम् पाठे विनियोगः चंद्रमंडल मध्यस्थे रुद्रमाले विचित्रिते तत्रस्थं चिन्तयेत्वाध्यं मृत्युं प्राप्नोपि जीवति ओम जूम सह रौम शिरः पातु देवो मृत्युञ्जयो मम श्री शिवो वैललाटं च ओम हौम भ्रुवौ सदा शिवः नीलकण्ठोऽवतान्नेत्रे कपरदीमेवताञ्छ्रुति त्रिलोचनोऽवताद्गण्डौ नासां मे त्रिपुरान्तकः मुखं पीयूषघटभृदोष्ठौ मे कृत्तिकाम्बरः हनुं मे हाटकेशानो मुखं बटुकभैरवः कन्धराङ्कालमथनो गलङ्गणप्रियोऽवतु स्कन्धौ स्कन्दपिता पातु हस्तौ मे गिरिशोऽवतु नखान्मे गिरिजानाथः पादानङ्गुलिसंयुतान् स्तनौ तारापतिः पातु वक्षः पशुपतिर्मम कुक्षिं कुबेरवरदः पार्श्वो मे मारशासनः शर्वः पातु तथा नाभिम् शूली पृष्ठं ममावतु शिष्णं मे शङ्करः पातु गुह्यं गुह्यकवल्लभः कटिं कलान्तकः पायादूरु मेऽन्धकघातकः जागरूकोऽवताज्जानु जङ्घौ मे कालभैरवः गुल्फोपायाज्जटाधारी पादौ मृत्युञ्जयोऽवतु पादादिमूर्धपर्यन्तं सद्यो जातो ममावतु रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः पूर्वे बलविकरणः पातु दक्षिणे कालशासनः पश्चिमे पार्वतीनाथ उत्तरे मां मनोन्मनः ऐशान्यामीश्वरः पायादाग्नेया मग्निलोचनः नैरृत्यां शङ्करो व्यान्मां वायव्यां वायुवाहनः ऊर्ध्वे बलप्रमथनः पाताले परमेश्वरः दश दिक्षु सदा पातु महामृत्युञ्जयश्च माम् रणे राजकुले द्युते विषमे प्राणसंशये पायादों जूं महारुद्रो देवदेवो दशाक्षरः प्रभाते पातु मां ब्रह्मा मध्याह्नं भैरवोऽवतु सायं सर्वेश्वरः पातु निशायान्नित्यचेतनः अर्धरात्रे महादेवो निशान्ते मां महोदयः सर्वदा सर्वतः पातु ॐ जूं सः हौं मृत्युञ्जयः इतीदं कवचं पुण्यम् त्रिषु लोकेषु दुर्लभम् सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितम् पुण्यः पुण्यप्रदः दिव्यं देवदेवाधिदैवतम् य इदं च पठेन्मन्त्रं कवचं वाचयेत्ततः तस्य हस्ते महद्देवी त्र्यम्बकस्याष्टसिद्धयः रणे धृत्वा चरेद्युद्धम् हत्वा शत्रून् जयं लभेत् जयं कृत्वा गृहे देवी सप्राप्स्यति सुखं पुनः महाभये महारोगे महामारी भये तथा दुर्भिक्षे शत्रुसंहारे पठेत् कवचमादरात् सर्वं तत्प्रशमं याति मृत्युञ्जयप्रसादतः धनं पुत्रान् सुखं लक्ष्मीमारोग्यं सर्वसम्पदः प्राप्नोति साधकः सद्यो देवि सत्यं न संशयः इतीदं कवचं पुण्यं महामृत्युञ्जयस्य तु गोप्यं सिद्धिप्रदं गुह्यं गोपनीयं स्वगोनिवत।